शङ्किताय कृतबाष्पनिपाताम् ईर्ष्यया विमुखिताम् दयिताय मानिनीमभिमुखाहितचित्ताम् शंसति स्म घनरोमविभेदः। शङ्कितायेति शङ्किताय दयिताय अविश्वस्ताय नायकाय ईर्ष्यया विमुखिताम् विमुखीकृताम् अत एव कृतबाष्पनिपाताम् मानिनीम् घनरोमविभेदः सान्द्रपुलकोदयः अभिमुखम् आहितम् चित्तम् यया ताम् निष्कोपामित्यर्थः। शंसति स्म व्यनक्ति स्म इत्यर्थः। अन्यथा सात्विकानुदयादिति भावः। अत्रापि पूर्वोक्तैव नायिका। अथ संभोगशृङ्गारम् आह तत्रापि बाह्यरतमाह।
लोलदृष्टिवदनम् दयितायाः चुम्बति प्रियतमे रभसेन व्रीडया सह विनीवि नितम्बात् अंशुकम् शिथिलतामुपपेदे।
लोलेति प्रियतमे लोलदृष्टि चञ्चलेक्षणम् दयितायाः वदनम् रभसेन बलात्कारेण चुम्बति सति विनीवि निर्गतबन्धनम् अंशुकम् नितम्बात् व्रीडया सह शिथिलताम् उपपेदे। उभयमपि शिथिलमासीदित्यर्थः। अत्र व्रीडांशुकरूपसम्बन्धिभेद भिन्नवृत्तिस्रंसनरूपशैथिल्यस्य अभेदाध्यवसाय निबन्धनातिशयोक्तिमूलः सहोक्तिविशेषः अलङ्कारः। अत एव व्रीडांशुकौपम्यम् च कल्प्यम्। अत्र वात्स्यायनः बाह्यमाभ्यन्तरम् चेति द्विविधम् रतमुच्यते। तत्राद्यम् चुम्बनाश्लेष नखदन्तक्षतादिकम् द्वितीयम् सुरतम् साक्षात् नानाकरणकल्पितम् इति।
ह्रीतया गलितनीविनिरस्यन् अन्तरीयमवलम्बितकाञ्चि मण्डलीकृतपृथुस्तनभारम् सस्वजे दयितया हृदयेशः।
ह्रीतयेति गलितनीवि गलितबन्धम् तथापि अवलम्बिता काञ्ची येन तत् काञ्चीलग्नमित्यर्थः। तत् अन्तरीयम् अधोंशुकम् अन्तरीयोपसंव्यान परिधानान्यधोंशुके इत्यमरः। निरस्यन् आक्षिपन् हृदयेशः प्रियः ह्रीतया वस्त्रापगमात् लज्जितया ह्रीधातोः कर्तरि तः दयितया मण्डलीकृतः वर्तुलीकृतः पृथुस्तनभारः यस्मिन् कर्मणि तद्यथा तथा गाढमित्यर्थः। सस्वजे आश्लिष्टः प्रियदृष्टेः प्रतिबन्धार्थम् इत्यर्थः।
आदृता नखपदैः परिरम्भाः चुम्बितानि घनदन्तनिपातैः सौकुमार्यगुणसम्भृतकीर्तिः वामयेव सुरतेष्वपि कामः।
आदृता इति परिरम्भाः आलिङ्गनानि नखपदैः हेतुभिः आदृताः अभिमताः। हेतौ इति तृतीया। तथा चुम्बितानि चुम्बनानि घनदन्तनिपातैः गाढदन्तक्षतैः हेतुभिः आदृतानीति लिङ्गविपरिणामः। सुरतसुखोद्दीपकत्वात् नखदन्तक्षतपूर्वकेषु आलिङ्गनचुम्बनेषु ఆదరః సంవృత్తః ఇత్యర్థః. ననూ సుకుమారే కామతంత్రే కథం పీడాకరేషు ఆదరః ఇతి నవాచ్యమిత్యాహ సౌకుమార్యేతి. సౌకుమార్యమేవ గుణః తేన సంభృతకీర్తిః లబ్ధయశాః కామః సురతేషు సంభోగేష్వపి. న కేవలం విప్రలంభేష్వితి భావః. వామః క్రూరః ఏవ సుకుమారః కామః ఇతి వాదమాత్రం. వస్తుతస్తు పీడయన్నేవ సుఖం ఆవహతీతి భావః. సామాన్యేన విశేషసమర్థనరూపః అర్థాంతరన్యాసః.
పాణిపల్లవ విధూననమంతః సీత్కృతాని నయనార్ధనిమేషాః. యోషితాం రహసి గద్గదవాచాం అస్త్రతాం ఉపయయుః మదనస్య. పాణీతి
రహసి ఏకాంతే ఇతి విశ్రంభాతిశయోక్తిః. గద్గదవాచాం స్ఖలద్గిరాం యోషితాం సంబంధీని పాణిపల్లవయోః విధూననం కంపనం అంతఃసీత్కృతాని సీత్కారాః. ఏతేన కుట్టమితాఖ్యః భావః ఉక్తః. అధరపీడనాదౌ సుఖేపి దుఃఖవత్ ఉపచారః కుట్టమితం ఇతి లక్షణాత్. నయనానాం అర్ధనిమేషాః అర్ధనిమీలితాని. రహసి ఏకాంతే గద్గదవాచాం యోషితామితి విశేషణసామర్థ్యాత్ గద్గదకంఠత్వం చేతి ఏతాని మదనస్య అస్త్రతాం ఉపయయుః. అస్త్రవత్ పుంసాం ఉద్దీపనాని ఆసన్నిత్యర్థః. అత్ర సీత్కారార్ధనిమేషాదినా సుఖపారవశ్యం వ్యజ్యతే. తదుక్తం రతిరహస్యే. స్రస్తతా వపుషి మీలనం దృశోః మూర్ఛనా చ రతిలాభలక్షణం శ్లేషయే స్వజఘనం ముహుర్ముహుః సీత్కరోతి గతలజ్జితాకులా ఇతి.
పాతు మాహితరతిన్యభిలేషుః తర్షయన్ చ పునరుక్తరసాని సస్మితాని వదనాని వధూనాం సోత్పలాని చ మధూని యువానః.
యువానః ఆహితరతీని వర్ధితరాగాణి అత ఏవ అపునరుక్తరసాని పునఃపునః పానేనాపి అపూర్వస్వాదాని అత ఏవ తర్షయంతి తృష్ణోత్పాదకాని అతృప్తికరాణీత్యర్థః. సస్మితాని వధూనాం వదనాని సోత్పలాని మధూని చ పాతుం అభిలేషుః ఇచ్ఛంతి స్మ. అత్ర ప్రస్తుతానామేవ వదనానాం మధూనాం చ పానక్రియౌపమ్యస్య గమ్యత్వాత్ కేవలం ప్రాకరణిక విషయతయా తుల్యయోగితాలంకారః. ప్రస్తుతానాం తథాన్యేషాం కేవలం తుల్యధర్మతః ఔపమ్యం గమ్యతే యత్ర సామతా తుల్యయోగితా ఇతి లక్షణాత్.
కాంత సంగమ పరాజితమన్యౌ వారుణీరసన శాంత వివాదే మానినీ జన ఉపాహిత సంధౌ సందధే ధనుషి నేషు మనంగః.
కాంతేతి కాంతసంగమేన పరాజితమన్యౌ త్యక్తరోషే తదవధికత్వాత్ తస్యేతి భావః. కించ వారుణీరసనేన మధ్వాస్వాదేన శాంతః వివాదః వాక్కలహాదిః యస్య తస్మిన్. అతః ఉపాహితసంధౌ ప్రియైః సహ కృతసంధానే మానినీజనే విషయే అనంగః ధనుషి ఇషుం న సందధే సంధానం నాకరోత్. సిద్ధసాధ్యే సాధనవైయర్థ్యాదితి భావః. कुप्यताशु भवतानत चित्ताः कोपितांश्च वरिवस्यत यूनः इत्यनेक उपदेश इव स्म स्वाद्यते युवतिभिर्मधुवारः कुप्यतेति यूनः प्रियान् कुप्यत यूनाम् कोपम् जनयत नात्र क्रुधद्रुह इत्यादिना यूनाम् सम्प्रदानत्वे चतुर्थी तस्य यम् प्रतिकोपः इति नियमात् अत्र कोपस्तावत् कृत्रिम इति आश्वानतचित्ताः अनुकूलचित्ताः भवत किञ्च कोपिताः तान् वरिवस्यत परिचरत नमो वरिवश्चित्रङ्गः क्यच् इति क्यच् वरिवसः परिचर्यायाम् इत्यर्थे तस्य नियमश्च इति एवम् अनेकः अनेकप्रकारः यः उपदेशः प्रवर्तकवाक्यम् स इव मधुवारः मधुपानावृत्तिः मधुवारा मधुक्रमाः इत्यमरः युवतिभिः स्वाद्यते स्म मधुवारस्य कोपादिकार्यप्रवर्तकत्वसाम्यात् उपदेशैवेति उत्प्रेक्षा अनियताः खलु मत्तचेष्टाः इति भावः भर्तृभिः प्रणयसम्भ्रमदत्ताम् वारुणीमतिरसाम् रसयित्वा ह्रीविमोहविरहादुपलेभे पाटवम् नु हृदयम् नु वधूभिः भर्तृभिरिति भर्तृभिः प्रणयसम्भ्रमाभ्याम् प्रेमादराभ्याम् दत्ताम् सम्भ्रमः साध्वसेऽपि स्यात् संवेगादरयोरपि इति विश्वः अत एव अतिरसाम् अधिकस्वादाम् वारुणीम् वरुणात्मजाम् सुराहलिप्रियाहाला परिस्नुद्वरुणात्मजा इत्यमरः रसयित्वा आस्वाद्य वधूभिः ह्रीविमोहविरहात् मदेन लज्जाजाड्यापगमाद्धेतोः पाटवम् पटुत्वम् नु हृदयम् ज्ञानविशेषम् नु उपलेभे अत एव हृदयस्य तत्कार्यज्ञानसामर्थ्यात् हृदयमेव प्रागसत् पश्चाल्लब्धमिति सन्देहः अन्यथा कथम् प्रियम् प्रति वक्रोक्त्याद्यर्थेषु प्रवृत्तिरिति भावः सन्देहालङ्कारः स्वादितस्वयमथैधितमानम् लम्भितः प्रियतमैः सह पीतः आसवः प्रतिपदम् प्रमदानाम् नैकरूपरसतामिव भेजे स्वादित इति स्वयम् स्वादितः आदौ स्वयमेव आदाय पीतः अथ अनन्तरम् प्रियतमैः एधितमानम् वर्धितबहुसम्मानम् यथा तथा लम्भितः ग्राहितः स्वहस्तेन पायित इत्यर्थः ततः प्रियतमैः सह पीतः युगपत् एकपात्रेण पीतः इत्यर्थः आसवः प्रमदानाम् प्रतिपदम् प्रतिवारम् नैकरूपरसताम् अनेकविधस्वादुत्वम् नयर्थस्य न शब्दस्य सुप्सुपेति समासः नैसमासे न लोपः स्यात् भेजे इव प्राप इव उपचारविशेषात् भोज्येषु रसविशेषः स्यादिति भावः आस्वादनादि पदार्थानाम् अनेकरसताप्राप्तिहेतुत्वात् काव्यलिङ्गम् तावत् एकम् स्वादनादीनाम् अनेकधर्माणाम् एकस्मिन्नेव सर्वक्रमेण सम्बन्धात् पर्यायभेदश्च तयोश्च संसृष्टयोः अनेकरसत्वोत्प्रेक्षाबीजत्वात् तया सह अङ्गाङ्गिभावेन सङ्करः
भ्रूविलाससुभगाननुकर्तुम् विभ्रमानिव वधूनयनानाम्
आददे मृदुविलोलपलाशैः
उत्पलैश्चषकवीचिषु कम्पः
भ्रूविलासेति भ्रूविलासैः सुभगान् सुन्दरान् वधूनयनानाम्
विभ्रमान्
अनुकर्तुम्
तैः
आत्मानम्
समीकर्तुमिवेति
फलोत्प्रेक्षार्थत्वात्
मृदुविलोलपलाशैः
ईषच्चञ्चलदलैः
उत्पलैः
चषकेषु
याः
वीचयः
मधुर्मयः
तासु
यः
कम्पः
सः
आददे
स्वीकृतः
न तु
स्वकम्पः
तस्य
विलोलविशेषणेनैव
उक्तत्वात्
तत्स्वीकारश्च
तद्योग
एव
पूर्वम्
नेत्रमात्रसाम्यभाजाम्
उत्पलानाम्
कम्पमानवीचियोगात्
सुभ्रूविलासनेत्रसाम्यम्
जातमित्यर्थः
ओष्ठपल्लवविदंशरुचीनाम्
हृद्यतामुपययौ
रमणानाम्
फुल्ललोचनविनीलसरोजैः
अङ्गनास्य
चषकैर्मधुवारः
ओष्ठेति
ओष्ठ
एव पल्लवः
तस्य
विदंशे
दंशने
रुचिः
अभिलाषः
येषाम्
तेषाम्
मुखसुरापानमिषेण
अधरम्
पिपासतामित्यर्थः
रमणानाम्
फुल्लानि
लोचनान्येव
विनीलसरोजानि
येषु
तैः
अङ्गनास्यान्येव
चषकाणि
पानपात्राणि
चषकोऽस्त्री
पानपात्रम्
इत्यमरः
तैः
मधुवारः
मधुपानावृत्तिः
हृद्यताम्
हृदयप्रियताम्
उपययौ
हृदयस्य
प्रियः
इति यत्प्रत्ययः
हृदयस्य
हृल्लेखयदण्लासेषु
इति
हृद्भावः
रमणविशेषणार्थहेतुक
काव्यलिङ्गसङ्कीर्णरूपकालङ्कारः
प्राप्यते
गुणवतापि
गुणानाम्
व्यक्तमाश्रयवशेन
विशेषः
तत्तथा
हि
दयिताननदत्तम्
व्यानशे
मधुरसातिशयेन
प्राप्यत
इति
गुणवतापि
आश्रयवशेन
गुणानाम्
विशेषः
प्रकर्षः
प्राप्यते
व्यक्तम्
तत्तथा
यदुक्तम्
तत्तथैव
इत्यर्थः
हि
यस्मात्
दयितानाम्
आननेन
करणेन
दत्तम्
मधु
रसातिशयेन
स्वादुप्रकर्षेण
कर्त्रा
व्यानशे
व्याप्तम्
विशेषेण
सामान्यसमर्थनरूपः
अर्थान्तरन्यासः
वीक्ष्य
रत्नचषकेष्वतिरिक्ताम्
कान्तदन्तपदमण्डनलक्ष्मीम्
जज्ञिरे
बहुमताः
प्रमदानाम्
ओष्ठयावकनुदो
मधुवाराः
वीक्ष्येति
रत्नचषकेषु
स्फटिकादिमणिपात्रेषु
अतिरिक्ताम्
यावकापगमात्
पूर्वाभ्यथिकाम्
कान्तस्य
यद्दन्तपदमण्डनम्
तस्य
लक्ष्मीम्
शोभाम्
प्रतिबिम्बितामिति
शेषः
वीक्ष्य
ओष्ठयावकनुदः
अधरलाक्षारागहारिणः
मधुवाराः
मधुपानाभ्यासाः
प्रमदानाम्
बहुमताः
अभिमताः
वर्तमाने
क्तः
तद्योगात्
षष्ठी
जज्ञिरे
जाताः। तेषाम् प्रियानुरागचिह्नप्रकाशकत्वादिति भावः मधुपानाद्विलोचनेषु रागोत्पत्तिः अदरेभ्यश्च लाक्षारागनिवृत्तिः मध्वाननयोश्च अन्योन्यगन्धसङ्क्रान्तिरिति स्थिते सति उत्प्रेक्षते लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा वारुणी परगुणात्मगुणानाम् व्यत्ययम् विनिमयम् नु वितेने लोचनेति लोचने च अधरश्च लोचनाधरम् समुद्राभ्राद्घः इति व्यभिचारज्ञापकात् न अधरशब्दस्य पूर्वनिपातः कृतश्च असौ आहृतश्चेति विशेषणसमासः लोचनाधरस्य कृताहृतः रागः यया सा तथोक्ता लोचनयोः कृतरागाधरात् आसमन्तात् हृतरागश्चेत्यर्थः षष्ठ्याः चार्थसम्बन्धात् सामान्यस्य योगविशेषे पर्यवसाननियमेन अधिकरणापादानार्थयोः आक्षेपात् तथा च अधरलोचनगुणयोः रागतद्विरहयोः स्थानपरिवृत्तिम् कृतवती इत्यर्थः तथा वासितेन स्वगन्धसङ्क्रान्तिसुरभितेन आननेन विशेषितः अतिशयितः गन्धः यस्याः सा यद्वा वासिताना च असौ अर्थात् आननेनैव विशेषितगन्धा चेति कृतबहुव्रीहिविशेषणसमासः उभयथापि आननसङ्क्रान्तस्वगन्धा स्वसङ्क्रान्ताननगन्धा चेत्यर्थः एवम् भूता वारुणी मदिरा परगुणात्मगुणानाम् परयोः लोचनाधरयोः गुणौ च परस्य आननस्य गुणः आत्मनः वारुण्याः गुणश्च परगुणात्मगुणाः तेषाम् परगुणात्मगुणानाम् व्यत्ययम् विनिमयम् नु वितेने विस्तारयामास चित्तेन प्रामादिकी वस्तुपरिवृत्तिः व्यत्ययः बुद्धिपूर्वा तु विनिमयः अत्र तन्त्रोच्चरितस्य परगुणशब्दस्य आवृत्या परगुणौ च परगुणात्मगुणौ चेति विग्रहः कथञ्चिदगत्या सोढव्यः उपमानपूर्वपदबहुव्रीहिवत् तथा च अयमर्थः परगुणयोः अधरलोचनगुणयोः रागतद्विरहयोः व्यत्ययम् नु विनिमयम् नु वितेने तथा परगुणात्मगुणयोः आननगन्धात्मगन्धयोश्च व्यत्ययम् नु विनिमयम् नु वितेने अन्यथा कथमन्यस्मिन् अन्यधर्मोपलम्भः सम्भवतीति भावः अत्र लोचनाधररागयोः तदभावयोः वा भेदेऽपि अभेदाध्यवसायात् एकत्ववाचो युक्तिः तस्मात् तन्मूलातिशयोक्त्यनुप्राणिता च इयम् व्यत्ययविनिमययोः अन्यतरकरणोत्प्रेक्षेति संक्षेपः सा च प्रतीयमाना व्यञ्जकाप्रयोगात् नुशब्दस्तु संशये